राम राम। अद्वैत पंचरत्न नाहं देहो नेन्द्रियाण्यन्तरंगो नाहंकारः प्राणवर्गो न बुद्धिः दारापत्यक्षेत्र वित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम्। रज्वज्ञानाद्भातिरग्रौ यथा हि स्वात्मा ज्ञानादात्मनो जीव भावः आप्तोक्त्या हि भ्रान्तिनाशे सरज्जुः जीवो नाहं देशिकोक्त्या शिवोऽहम्। आभातीदं विश्वमात्मन्यसत्यं सत्यज्ञानानन्दरूपे विमोहात् निद्रामोहात् स्वप्नवत्तन्न सत्यं शुद्धः पूर्णो नित्य एकः शिवोऽहम्। नाहं जातो न प्रवृद्धो न नष्टो देहस्योक्ताः प्राकृताः सर्वधर्माः कर्तृत्वादिश्चिन्मयस्यास्ति नाहंकारस्यैव ह्यात्मनो मे शिवोऽहम्। मत्तो नान्यत् किञ्चिदत्रास्ति विश्वं सत्यं बाह्यं वस्तुमायोपक्लुप्तम् आदर्शान्तर्भासमानस्य तुल्यं मय्यद्वैते भाति तस्मात् शिवोऽहम्।
राम राम।